एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः संघीय लोकतान्त्रिक गणतन्त्रस्य स्थापनायै मानवाधिकाराणां विधेः शासनस्य च कृते सामाजिक रूपान्तरणाय च सामुदायिक रेडियो प्रसारणेन निरूढां भूमिकां प्रशंसन् लोकतन्त्रं प्रति जनविश्वासस्य वर्धनाय बलं ददाति। सामुदायिक रेडियो प्रसारक संघस्य नवनिर्वाचित पदाधिकारीभ्य शुभकामनां प्रदातुं राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे राष्ट्रपति पौडेल भूकम्प कोरोना प्रभृतिषु विषम परिस्थितिषु सामुदायिक रेडियो प्रभृति प्रसारणानां भूमिका प्रशंसनीयासीदिति अस्मरत। राष्ट्रपति पौडेल सामाजिक सञ्जालस्य प्रयोगेण सह तथ्यहीन भ्रामक सूचनया समाहोय वर्धितोऽस्तित्यत्र चिन्तां प्रकटयन् जनतायां सत्य सूचनां सम्प्रेष्य संचाराभिव्यक्ति स्वतन्त्रतायाः निर्वाधेन उपयोगं कृत्वा लोकतन्त्रं प्रति जनतायाः विश्वासं वर्धयितुं संचारकर्मिभिः सदा सावधानैर्भाव्यम् इत्यत्र बलं प्रादात्। प्रधानमन्त्री केपी शर्मा ओली विपन्नान् वर्गान् क्षेत्राणि लिंगानि जातिश्च शिक्षायाः मूलधारे समाविश्य तेभ्य गुणस्तरीय शिक्षाया समानावसरस्य प्रदानाय बलं ददाति। एतत् विक्रमवर्षीय शिक्षा दिवसस्य अवसरे शुभकामना सन्देशं प्रददत् प्रधानमन्त्री ओली शिक्षा क्षेत्रे आयव्ययकस्य प्रतिशतं प्रवर्ध्य सबल विकासस्य लक्ष्यम् अधिगन्तुं विद्यालय शिक्षा सम्बद्धम् एतत् विक्रमवर्षीयं विधेयकं समीमर्शनं पारितीकर्तुं सर्वकारः प्रतिबद्धोऽस्तीति उक्तवान् वर्तते। नेपालस्य संविधानेन प्रत्याभूतस्य शिक्षा सम्बद्ध मौलिकाधिकारस्य क्रियान्वयनस्य क्रमे अनिवार्य निःशुल्क शिक्षा सम्बद्धस्य पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षस्य अधिनियमस्य क्रियान्वयनस्य आश्विनमासस्य द्वितीय दिवसं राष्ट्रिय शिक्षा दिवसत्वेन आयोजयितुं सर्वकारेण निर्णीतं वर्तते। वर्षेस्मिन् ज्ञानं विज्ञानं शिल्पं उद्यमः मौलिकता च सहकारी प्रणालीगत सक्षमता इति समाघोषेण एतद् विक्रमवर्षीयः राष्ट्रिय शिक्षा दिवसः आयोज्यमानोऽस्ति तत्र प्रधानमन्त्रिणा प्रसन्नता व्यक्तास्ति। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भाषते प्रदेश संरचना इतोऽपि उत्तरदायिनी पारदर्शिनीं च विधातव्या। दलस्य विधि विभागेन सानेपा वर्तिनी केन्द्रीय कार्यालये ह्य आयोजितायां संविधानस्यैकदशकं क्रियान्वयनं समाहोयाश्चेति विषयिण्यां विचारगोष्ठ्यां सभापतिः देउवा निर्मितां प्रदेश संरचनां निरस्तीकर्तुं न शक्यते, परं प्रदेशः उत्तरदायिनः पारदर्शिनश्च विधातुं शक्यन्ते इत्यभाषत। सभापतिः देउवा महिला दलितादिवासी जनजाति प्रभृतीनां समुदायानां शासन प्रणाल्यां सहभागितायै समानुपातिक समावेश सिद्धान्तः अधुनापि देशस्य कृते आवश्यकोऽस्तीति अभाषत। सभापतिः देउवा नेपाली कांग्रेस दलेन नेकपा एमाले दलेन च प्रजातन्त्रस्य कृते संघर्षः विहितोऽस्तीत्यतः प्रजातन्त्रस्य विरुद्धं किमपि कार्यं न क्रियते इति चर्चयन् प्रजातन्त्रम् इतोऽपि सुदृढं विधातुं संविधान संशोधनं विधास्यते इति समस्पष्टयत्। वृष्टेः समृद्धेश्च देवस्य इन्द्रस्य पूजाराधनपूर्वकं ह्यः परम्परागतम् इन्द्रयात्रापर्व समायोजितम्। इन्द्रयात्रायाः अवसरे धार्मिक परम्परायाः अनुसारेण राष्ट्रप्रमुखस्य रूपेण ह्यः राष्ट्रपतिः रामचन्द्र पौडेलः काष्ठमण्डपस्य हनुमद्वारवर्तिनी राजसिंहासनोपवेशे श्रीगणेशस्य श्रीभैरवस्य जीवितदेव्याः रूपेण विद्यमानायाः श्रीकुमार्याश्च रथयात्रां व्यलोकयत्। इन्द्रयात्रापर्वणः दर्शनाय राष्ट्रपतिः रामसाहेब प्रसाद यादवः प्रधानमन्त्री केपी शर्मा ओली सभामुख देवराज घिमिरे राष्ट्रसभाया अध्यक्षः नारायण प्रसाद दाहालः प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठः मन्त्रिणः सुरक्षा निकायानां प्रमुखः सर्वकारस्य उच्च पदाधिकारिणश्च वसन्तपुर प्रासाद परिसरं प्राप्ताः आसन्। काष्ठमण्डप महानगरेण वसन्तपुर प्रासाद क्षेत्रं यातायात साधनरहित क्षेत्रत्वेन उद्घुष्टमस्तीत्यतः राष्ट्रपति प्रभृतयः सर्वेऽपि विशिष्टाधिकारिणः निरूढ क्षेत्रस्य युद्ध प्रतिमास्थलात् पदयात्रया एव वसन्तपुर प्रासादं प्राप्ताः आसन्। सनातन हिन्दू परम्परानुसारेण अद्यतः पितृपक्षः प्रारब्धोऽस्ति। आश्विन कृष्ण पक्ष पितृणाम कृते पर्व समान कालो भवति इति धार्मिक ग्रन्थेषु वर्णितमस्ति। षोडश श्राद्ध इति नाम्ना प्रथितासु पितृपक्षस्य षोडश तिथिषु दिवंगत पितृभ्यः सश्रद्धम् अन्नजले समर्प्यते। यज्ञ पूजादि विशिष्ट पर्वणाम् अनुष्ठानात् प्राक् आभ्युदयिक श्राद्ध रूपेण पितरः पूज्यन्ते इत्यतः दुर्गा पूजा एव पञ्चकयोः विशिष्ट पर्वणः पूर्वं षोडश तिथिषु विधीयमानैः श्राद्धैः पितृऋणात् मुक्तिर्मेलिष्यति, चित्तशुद्धिश्च सञ्जायते इति शास्त्रीय मान्यता वर्तते। अस्मिन् पक्षे श्राद्धे न विहिते सति अक्षम्य दोषो भवति इति शास्त्रीय वचनस्यानुसारेण षोडश श्राद्धं विधीयमानमस्ति इति धर्मशास्त्रविद् प्राध्यापक डॉ रामचन्द्र गौतम अज्ञापयत्। पितृपक्षोऽयम् आश्विन कृष्ण प्रतिपद आरभ्य आगामिनीम् अमावस्याम् अर्थात् आश्विन मासस्य षोडशम् दिवसम् यावत् चलिष्यति। तदनु नवरात्रि पर्व विजयादशमी पर्व वा प्रारप्स्यते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह देशे राजनीतिक स्थिरतायै सर्वकारस्य स्थायित्वाय च संसदः द्वयोः विपुल दलयोः गठबन्धनम् निर्मितमस्तीति स्पष्टीकरोति। नेपाल प्रेस यूनियन संघेन धनगढ़ी नगरे ह्य आयोजिते पत्रकार सम्मेलने मन्त्री सिंह भूयोभूय सर्वकारस्य परिवर्तनेन उत्पन्नां स्थितिं सहजां विधातुं नेपाली कांग्रेस दलेन नेकपा एमाले दलेन च संहत्य सर्वकारस्य निर्माणं विहितमस्तीति अभाषत। मन्त्री सिंह वर्तमान सर्वकारेण भूकम्पस्य कोरोना महामार्याश्च कारणेन शिथिलम् अर्थतन्त्रम् पूर्ववद् अवस्थायाम् आनेतुम् कार्यम् विधीयमानमस्तीति अवोचत्। उपप्रधानमन्त्री सिंह संघीयतायाः मर्मणः जनानाम् इच्छायाश्च अनुसारेण राष्ट्रियहितम् विचार्य संविधानस्य प्रभावकारि क्रियान्वयनाय विकास निर्माण कार्यम् द्रुतगत्या अग्रे वर्धयितुम् प्रतिबद्धताम् अभिव्यनक्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेयः देशे दृष्टानां समस्यानां समाधानाय नेपाली कांग्रेस दलेन नेकपा एमाले दलेन च एकत्रैव स्थातव्यमभूदिति स्पष्टीकरोति। ह्यः काष्ठमण्डपे आयोजितं नेपाल पर्वतारोहण संघस्य चतुस्त्रिंशत्तमं वार्षिकोत्सवं सम्बोधयन् मन्त्री पाण्डेयः अधुना द्वन्द्वस्य समयः नास्तीत्यतः सर्वैः मिलित्वा देशनिर्माणस्य बेला समायातास्तीति अभाषत। मन्त्री पाण्डेयः संस्कृति पर्यटनोड्डयन नीतेः आवश्यकं परिमार्जनं कृत्वा नेपाल वायुसेवा निगमं सक्षमं विधाय उड्डयन क्षेत्रस्य सुरक्षायाः विषये संसदः आगामिनि अधिवेशने पर्यटन नागरिकोड्डयनाभ्यां सह सम्बद्धाः अधिनियमाः निर्मास्यन्ते, यतः पर्यटन क्षेत्रं गतिशीलं भविष्यति इति अपेक्षत। कार्यक्रमे पूर्व पर्यटन मन्त्रिणौ भीम आचार्यः बलबहादुर केसी च धारणां व्यक्तवन्तौ। देशस्य सप्तषु एव प्रदेशेषु अर्बुद रोगोपचार सेवा प्रारब्धा वर्तते। ह्य गण्डकी प्रदेशस्य पोखरा स्वास्थ्य विज्ञान प्रतिष्ठाने स्वास्थ्य जनसंख्या मन्त्रिणः प्रदीप पौडेलस्य उपस्थितौ भरतपुरार्बुद चिकित्सालयस्य माध्यमेन अर्बुद रोगोपचार सेवायाः विस्तारेण सहैव देशस्य सप्तषु एव प्रदेशेषु अर्बुद रोगोपचार सेवा उपलब्धा अस्ति। इतः पूर्वं बागमती प्रदेशे भक्तपुर भरतपुरयोः लुम्बिनी प्रदेशस्य नेपालगंज नगरे च अर्बुद रोगोपचार केन्द्राणि आसन् इति समाचारः।